रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतेः रामचन्द्र पौडेलस्य स्वास्थ्यं सामान्यमस्तीति चिकित्सालयेन ज्ञापितं वर्तते। राष्ट्रपतेः पौडेलस्य स्वास्थ्य समस्यायाम् उत्पन्नायां ह्य महाराजगंजवर्तिने मनमोहन कार्डियोथोरासिक भास्कुलर ट्रान्सप्लान्ट सेन्टर इति चिकित्सालये उपचारः जायमानोऽस्ति। चिकित्सालयस्य कार्यकारी निर्देशकस्य प्राध्यापकस्य डाक्टर रत्नमणि गजुरेलस्य अनुसारेण राष्ट्रपतेः स्वास्थ्य परीक्षणं विहितमस्ति। स्वास्थ्यावस्था सामान्य अस्ति। स्वास्थ्य समस्यायां संजातायां राष्ट्रपतिः पौडेलः ह्यः चिकित्सालये गतः आसीत्। प्रधानमन्त्री सुशीला कार्की देशस्य सामयिक परिस्थितेः जेएनजीयूनां समूहस्य याचना सम्बोधनस्य निर्वाचनस्य च विषयेष् जेएनजीयूनां समूहस्य प्रतिनिधिभिस्सह ह्यः राष्ट्रपतेः कार्यालये विमृष्टवती अस्ति। विमर्शने सुशासनस्य संविधान संशोधनस्य च विषये जेएनजीयूनां प्रतिनिधिभिः स्वकीया धारणा प्रस्तुता अस्ति। जेएनजीयूनां समूहस्य आन्दोलनस्य प्रतिनिधिभिः आगामिनः फाल्गुनमासस्य एकविंशे दिवसे आयोक्ष्यमाणे प्रतिनिधिसभायाः निर्वाचने भागं ग्रहीतुं राजनीतिकदलानि आहूतानि सन्ति। राष्ट्रपतिभवने प्रधानमन्त्रिणा सुशीला कार्की इत्यनया मन्त्रिपरिषदः सदस्यैश्च सह विमर्शनानन्तरं संचारकर्मिभिस्सह वार्तां कुर्वद्भिः एतैः प्रतिनिधिभिः निर्वाचने भागं ग्रहीतुं सर्वाणि दलानि अनुरुद्धानि सन्ति। संसदीयाभ्यासे विद्यमानैः प्राचीनैः दलैः यदि निर्वाचने भागो न गृह्यते निर्वाचनमेव न सम्भवति। ततः घोषितस्य निर्वाचनस्य उपयोगार्थं सर्वैः दलैः भागो ग्राह्य इति प्रतिनिधिभिः स्वकीया धारणा प्रस्तुता। एतत्पूर्वं शुक्रवासरे राष्ट्रपतेः रामचन्द्र पौडेलस्य आह्वाने विघटित प्रतिनिधिसभायां प्रतिनिधित्वं कुर्वद्भिः राजनीतिकदलानां नेतृणां सर्वकारस्य च मध्ये विमर्शः सम्भूतः आसीत्। सहभागिभिः राजनीतिकदलानां नेतृभिः लोकतन्त्रे विश्वासं विदधद्भिः राजनीतिकदलैः निर्वाचनार्थं सदैव तत्परैः भूयते इत्युक्त्वा साम्प्रतिक्या सुरक्षा व्यवस्थया निष्पक्षे स्वतन्त्रे च वातावरणे निर्वाचनस्य सम्पादनस्य विषये संशयः उत्पन्नोऽस्तीति उक्तमासीत्। सर्वकारेण निर्वाचने भागं ग्रहीतुं राजनीतिकदलानां नेतारः अनुरुद्धः आसन्। नेपाली कांग्रेस दलस्य युवभिः दले जेएनजीयूनां समूहस्य प्रातिनिध्यं विधाय महाधिवेशनस्य सुनिश्चेतुं दलस्य ध्यानाकर्षणं विहितमस्ति। पूर्वे द्युः दल केन्द्रीय कार्यालये केन्द्रीय पदाधिकारिणां पूर्व पदाधिकारिणां केन्द्रीय कार्य सम्पादन समितेः पदाधिकारिणां च ध्यानाकर्षणं विधाय युवभिः दलं युवमैत्रं गतिशीलं दायित्ववाही च विधातुम् अनुरुद्धमस्ति। अत्रान्तरे नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः अस्यैव आश्विन मासस्य अष्टाविंशे दिवसे आयोक्ष्यते। अस्यैव आश्विन मासस्य त्रयोविंशात् दिवसात् प्रारब्धे केन्द्रीय पदाधिकारिणां पूर्व पदाधिकारिणां कार्य सम्पादन समितेः पदाधिकारिणां च उपवेशे ह्य समाप्तेऽपि पूर्व कार्यस्य आवश्यकतायां सत्याम् उपवेशः दिनद्वयानन्तरम् अष्टाविंशे दिवसे निर्धारितोऽस्तीति दलस्य प्रवक्ता डॉ प्रकाश शरण महत अज्ञापयत्। दलस्योपसभापतेः पूर्णबहादुर खड्गाभिदस्य सभापतित्वे उपविष्टेन कार्य सम्पादन समितेः उपवेशेन प्रदत्तं परामर्शं सभापतिना शेरबहादुर देवाभिदेन सह विमृश्य दलस्य केन्द्रीय समितेः उपवेशस्य विषयः निर्धारयिष्यते इति प्रवक्ता डॉ महत असूचयत्। नेकपा एमाले दलस्य सचिवालयोपवेशः अद्य वसति। ह्यः निर्धारितः सचिवालयोपवेशः अध्यक्षस्य केपी शर्मा ओलिनः स्वास्थ्यावस्थायाः कारणेन ह्यः स्थगितः आसीदिति एमाले केन्द्रीय कार्यालयस्य सचिवः डॉ भीष्म अधिकारी असूचयत्। अद्य उपवेशे शुक्रवासरे मन्तव्य प्रदाने अवशिष्टैः सदस्यैः देशस्य सामयिक विषये स्वकीया धारणा उपस्थापयिष्यते इति कार्यालय सचिवः अधिकारी असूचयत्। एमाले दलस्य केन्द्रीय समितेः उपवेशः अस्यैव आश्विन मासस्य ऊनत्रिंशत् दिवसात् एकत्रिंशत् दिवसं यावत् काष्ठमण्डपे आयोक्ष्यते। शिक्षा विज्ञान प्रविधि मन्त्रालयेन त्रिभुवन विश्वविद्यालयस्य भूमि सम्पद अनुसन्धान समितेः गतविक्रमवर्षीयं प्रतिवेदनं प्रकाश्य क्रियान्वयनस्य पूर्वकार्यं विहितमस्ति। अस्यैव आश्विन मासस्य त्रयोविंशे दिवसे उपविष्टेन मन्त्रिपरिषद उपवेशेन प्रतिवेदनस्य क्रियान्वयनस्य दायित्व प्रदानानन्तरं मन्त्रालयेन तस्य पूर्वकार्यं विहितमस्ति। शिक्षामन्त्री महावीर पुनः प्रतिवेदनं सार्वजनिकीकर्तुम् आत्मना निर्दिष्टमस्ति इति सामाजिक सञ्जालस्य माध्यमेन सूचितवान् अस्ति। इन्टरनेट इति वैद्युत तरंगस्य एआई इति बौद्धिक कृत्रिमतायाः विविधेष् विषयेष् विंशति देशानां विज्ञैः नेपाले चत्वारि दिनानि विमृष्टमस्ति। इन्टरनेट इति वैद्युत तरंगस्य क्षेत्रे कार्यं विदधत्या एशिया पैसिफिक स्कूल ऑफ इन्टरनेट गवर्नेंस इति संस्थया आयोजिते एतत् ख्रीष्टवर्षीये एपीसी इति नामके सम्मेलने षोडशस् चरणेष् कार्यक्रमः संचालितः आसन्। अस्यैव आश्विन मासस्य एकविंशात् दिवसात् चतुर्विंशं दिवसं यावत् सम्भूते सम्मेलने षोडश राष्ट्राणां सर्वकारीयाधिकारिणः सूचना प्रविधिविज्ञः प्राध्यापकः पत्रकारः अधिकारकर्मिणः अनुसन्धातारश्च सहभागिनः आसन्। बारा जनपदस्य सिमरौनगढ़ स्थाने ह्य प्रात मृद्राशिना पूरितौ द्वौ जनौ मृतौ स्तः। घटनायां षड् जनः आहतः वर्तन्ते। मृतकौ सिमरौनगढ़ नगरपालिकायाः षष्ठ ओडा क्षेत्रस्य जलभण्डार समीपे मृत्तिकायाः खननक्रमे पूरित्वा सिमरौनगढ़ नगरपालिकायाः षष्ठ ओडा क्षेत्रवर्तिनः इटबाल स्थानस्य सप्तति वर्षीया शारदा देवी महतो पञ्चदशवर्षीय सुनील महतो च वर्तेते। आहतानाम् अवस्था सामान्य अस्ति इति बारा जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब परीक्षक विजयराज पण्डितः असूचयत्। अस्यैव आश्विन मासस्य सप्तदशे अष्टादशे एकोनविंशे च दिवसेषु दूरापन्नया अविरल वृष्ट्या सहैव दूरापन्नयोः जलविप्लव भूस्खलनयोः कारणेन अवरुद्धस्य बीपी राजमार्गस्य संभारं विधाय पूर्णतया संचालितोऽस्ति। गत सप्ताहे दूरापन्नेन जलप्लवेन भूस्खलनेन च बीपी राजमार्गस्य विभिन्नेषु खण्डेषु अस्थायी रूपेण मार्गस्य निर्माण कार्ये तीव्रता प्रदानेन सह एकोनविंशति स्थानेषु वैकल्पिक मार्गस्य निर्माणं विधाय अवरुद्ध राजमार्ग ह्यस्तन दिवसात् संचालितोऽस्ति इति भक्तपुरवर्तिन्या मार्ग विभाग कार्यालयेन ज्ञापितमस्ति। शुक्रवासरस्य रात्रौ क्षतिग्रस्तेष् सम्पूर्णेष् मार्गखण्डेष् मार्ग निर्माणानन्तरं परीक्षणं विधाय ह्य प्रातःकालात् राजमार्ग पूर्णतया संचालितो वर्तते। शुक्रवासरस्य सायं राजमार्गान्तर्गतस्य काभ्रेपलाञ्चोक जनपदस्य नमोबुद्ध नगरपालिकायाः षष्ठ वडा क्षेत्रस्य चौकीडाँडा स्थानात् रोशी ग्रामपालिकायाः मामती स्थानपर्यन्तम् अस्थायी मार्गस्य निर्माणानन्तरं परीक्षणं विहितम् आसीत्। भीमदत्त राजमार्गान्तर्गतस्य डोटी जनपदस्य गोल्डेन मार्गखण्डे ह्य हाइस जीपयानस्य दुर्घटनायां एको जनो मृतोऽस्ति। दुर्घटनायां एकविंशति जनाः आहताः वर्तन्ते। आहतेषु त्रयो जनाः गभीराः सन्ति इति प्रहरिणा ज्ञापितमस्ति। दुर्घटनायां अछाम जनपदस्य द्वाविंशति वर्षीया हरिया परियारः मृता अस्ति इति प्रहरिणा ज्ञापितम् वर्तते। अस्य वर्षस्य साहित्य संध्या गोविन्द भट्ट स्मृति पुरस्कार वरिष्ठ साहित्यकाराय प्राध्यापकाय डॉ वासुदेव त्रिपाठी इत्यस्मै प्रदत्तोऽस्ति। ऊनचत्वारिंशदधिक द्विसहस्रतम विक्रम वर्षात् साहित्यिक गतिविधिन् संचालयन्त्या अनया संस्थया ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे नेपाल प्रज्ञा प्रतिष्ठानस्य पूर्व कुलपतिना वैरागी काइला इत्यनेन प्राध्यापकाय डॉ त्रिपाठिने पञ्चाशत् सहस्र रूप्यकाणां पुरस्कारोऽयं प्रदत्तोऽस्ति।